पुरोजी दीवो अन्धरस्तुदायमादयुद्धवे अपदस्वानम् स्रधिष्टनसखा यो दीर्घयुक्तम् यो धारजापापकजाः परिप्रस्यन्दते सुतः इन्दुरस्सोनकृत्याः तम् दुरोजमभीनरस्सोमम् विश्वाच्याधिया यज्ञम् निन्दन्त्यद्रिभिः सुता सोमधूमत्तमाः सोमा इन्द्राय मन्दिनाः अपित्रावन्तो अक्षरम् देवान् गच्छन्तु गोमदाः इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् वाचस्पतिर्मकस्य देविश्वस्येषा नभोजसा सहस्रधारः पवते समुद्रो वाचमीङ्खयः सोमः पदीरयीनाम् सखेन्द्रस्य दिवे दिवे अयम् भूषारजिर्भगः सोमः पुनानो अर्षति पदिर्विश्वस्य भूमानो व्यख्यद्रोदसी उभे समप्रियानोषदगामोमदाय कृष्वजः सोमासः कृण्वते भसः पवमानास इन्दवः यभोजिष्ठस्तमाभरपवमानश्रवार्यम् यः पञ्चदर्षणीरभिरञ्जेन वनावहै सोमाः पवन्त इन्दभोस्मभ्यम् गातुवित्तमाः मित्रासु बाला रेपसः स्वाध्यः स्वर्विदाः सुष्वानासो व्यद्रिभिश्चिदाः नागोरधिध्वजे इषमस्मभ्यमभितः समस्वरन् वसुविदाः एते भूतावि पश्चिदः सोमाः सोदध्याः शिरः सूर्यासो न दर्शदासो जिघत्नवोऽभ्युपाघृते प्रसन्नालस्यान्ध सोमत्थो न वृतदद्वचाः अपस्वानमराधसम् हरामखन्न भृगवः आजाविरत्के अव्यतभुजेन पुत्रभोऽन्योः सरजारो न योषाणाम् वरो न योनिमासदम् वीरो दक्षसाधनो वियस्तस्तम्भरोदसी हरिष्पवित्रे अव्यतवेधानयोनिमासदम् अव्योपारे विद्पवते सोमो गव्ये अधित्वचि कणिक्रतद्वृषा हरिरिन्द्रस्याभ्ये निष्कृतम्